अथ चैनम् नित्यजातम्
अथ चैनम् नित्यजातम्
नित्यम् वा मन्यसे मृतम्
नित्यम् वा मन्यसे मृतम्
तथापि त्वम् महाबाहो
तथापि त्वम् महाबाहो
नैवम् शोचितुमर्हसि
नैवम् शोचितुमर्हसि